राम गीता जी का पाठ 16वां अध्याय प्रारंभ से श्लोक 12 तक। राम
वसुदेव सुखदेव पंचजानोरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम्। ॐ श्री परमात्मने नमः।
कामक
शुभ परायणा पीहन्तु काम भोगास्तु मन्याये नाथ संशयान् वसुदेव सुतं देवं पञ्चजानुरमर्दनम् देवकी परमानन्दम् कृष्णं वन्दे जगद्गुरुम् कृष्णं वन्दे जगद्गुरुम्
हरि शरणम् हरे शरणम् हरे शरणम् हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरे शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरि शरणम् हरे 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 शरणम्।